ओम नमो भगवते वासुदेवाय। अथ सप्तत्रिंशोऽध्यायः। श्रीशुक उवाच, केशीतु कंस प्रहित खुरैर्महीम् महाहयो निर्जरयन् मनोजवः। सतावधूता भ्रविमान संकुलम् कुर्वन्नभो हेषितभीषिताखिलः। विशालनेत्रो विकटास्य कोटरो बृहद्गलो नीलमहाम्बुदोपमः। दुराशयः कंसहितं चिकीर्षुर्व्रजं सनन्दस्य जगामकम्पयन्। तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम्। आत्मानमाजौ मृगयं तमग्रणीरुपाह्वयत् सव्यनदन् मृगेन्द्रवत्। स तं निशाम्याभिमुखो मुखे नखं पिबन्निवाभ्यद्रवदत्यमर्षणः। जघानपद्भ्यामरविन्दलोचनम् दुरासदश्चण्डजवो दुरत्ययः। तद्वञ्चयित्वा तमधोक्सजोरुषा प्रगृह्यदोर्भ्याम् परिविध्यपादयोः। सावज्ञमुत्सृज्य धनुषतान्तरे यथोरगम् तार्क्ष्यसुतो व्यवस्थितः। सलब्धसंज्ञः पुनरुत्थितोरुषा व्यादाय केशीतरसा पतद्धरिम्। सोऽप्यस्य वक्त्रे भुजमुत्तरम् स्मयन् प्रवेशयामास यथोरगम् बिले। दन्तान्निपेतुर्भगवद्भुजस्पृशस्ते केशिनस्तप्तमयः स्पृशो यथा। बाहुश्च तद्देहगतो महात्मनो यथा मयः संववृधे उपेक्षितः। समेधमाने न सकृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन्। प्रस्विन्नगात्रः परिवृत्तलोचनः पपातलेण्डम् विसृजन् क्षितौ व्यसुः। तद्देहतः कर्कटिकाफलोपमात् व्यसोरपाकृष्य भुजम् महाभुजः। अविस्मितो यत्नहतारिरुत्स्मयैः प्रसूनवर्षैर्दिविशद्भिरीडितः। देवर्षिरुपसङ्गम्य भागवत प्रवरो नृप कृष्णमक्लिष्टकर्माणम् द्रहस्येतदभाषत। कृष्णकृष्णाप्रमेयात्मन्योगेश जगदीश्वर वासुदेवाखिलावास सात्वताम् प्रवरप्रभो। त्वमात्मा सर्वभूतानामेको ज्योतिर्वैधसाम् गूढो गुहाशयः साक्षी महापुरुष ईश्वरः। आत्मनात्माश्रयः पूर्वम् मायया ससृजे गुणान् तैरिदम् सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः। सत्त्वम् भूधरभूतानाम् दैत्यप्रमथरक्षसाम् अवतीर्णो विनाशाय सेतूनाम् रक्षणाय च। दिष्ट्या ते निहतो दैत्यो लीलयायम् हयाकृतिः। यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषादिवम्। चाणूरम् मुष्टिकम् चैव मल्लानन्यांश्च हस्तिनम्। कंसम् च निहतम् द्रक्ष्ये परश्वो हनिते विभो। तस्यानुशङ्खयमनमुराणाम् नरकस्य च पारिजातापहरणमिन्द्रस्य च पराजयम्। उद्वाहम् वीरकन्यानाम् वीर्यशुल्कादिलक्षणम्। नृगस्य मोक्षणम् पापाद्वारकायाम् जगत्पते। श्यमन्तकस्य च मणेरादानम् सह भार्यया मृतपुत्रप्रदानम् च ब्राह्मणस्य स्वधामतः। पौण्ड्रकस्य वधम् पश्चात् काशीपुर्याश्च दीपनम्। दन्तवक्त्रस्य निधनम् चैद्यस्य च महाक्रतौ। यानि चान्यानि वीर्याणि द्वारकामावसन् भवान्। कर्ता द्रक्ष्याम्यहम् तानि गेयानि कविभिर्भुवि। अथ ते कालरूपस्य क्षपयिष्णो रमुस्य वै अक्षौहिणीनाम् निधनम् द्रक्ष्याम्यर्जुनसारथेः। विशुद्धविज्ञानघनम् स्वसंस्थया समाप्त सर्वार्थममोघवाञ्छितम्। स्वतेजसा नित्यनिवृत्तमाया गुणप्रवाहम् भगवन्तमीमहि। त्वामीश्वरम् स्वाश्रयमात्ममायया विनिर्मिता शेषविशेषकल्पनम्। क्रीडार्थमद्यात्तमनुष्य विग्रहम् नतोऽस्मि धुर्यम् यदुवृष्णिसात्वताम्। श्रीशुक उवाच, एवम् यदुपतिम् कृष्णम् भागवत प्रवरो मुनिः प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः। भगवानपि गोविन्दो हत्वा केशिनमाहवे पशून पालयत्पालै प्रीतैर्व्रजसुखावहः। एकदा ते पशून् पालाश्चारयन्तो दृशानुषु चक्रुर्निलायन क्रीडाश्चोरपालापदेशतः। तत्रासन् कतिचित् चोराः पालाश्च कतिचिन्नृप मेषायिताश्च तत्रैके विजर्रुरकुतो भयाः। मयपुत्रो महामायो व्योमो गोपालवेषधृक् मेषायिता नपोवाः प्रायश्चोरायितो बहून्। गिरिदर्याम् विनिक्षिप्य नीतम् नीतम् महासुरः शिलया पिदधे द्वारम् चतुः पञ्चावशेषिताः। तस्य तत्कर्म विज्ञाय कृष्णः शरणतः सताम्। गोपान्नयन्तम् जग्राह वृकम् हरिरिव ऊजसा। स निजम् रूपमास्थाय गिरीन्द्रसदृशम् बली। इच्छन् विमोक्तुमात्मानम् नाशक्नोत् ग्रहणातुरः। तम् निगृह्याच्युतो दोर्भ्याम् पातयित्वा महीतले। पश्यताम् दिवि देवानाम् पशुमारममारयत्। गुहापिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः। स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।